हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते विभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्य वोचददि वक्ता प्रथमो दैव्योऽभिषक् अयेगश्च सर्वान् जम्बयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मियोर्जा याश्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु दे निषीर्य शल्यानामुखा शिवो नः सुमना भव विर्जम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् विणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः स्वस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय ततामिने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे एस्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो शिवद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो वेद्यभ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नम स्वप भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रदपदेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः रक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः श्वभ्यश्वपदेभ्यश्च वो नमः namo bhavaya cha rudraya cha namah sarvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha namah kavardine cha vyuktakeshaya cha namah sahasrakshaya cha shatadhanvane cha namo girishaya cha shibhivishtaya cha namo meerushtamaya cha shumate cha namo hraswaya cha vamanaya cha namo prahate cha varshiyase cha namo vriddhaya cha samradvane cha namo agriyaya cha prathamaya cha namo Ashavecha jiraya cha nama, shigriyaya cha shibhyaya cha nama, urmyaya cha vasvanyaya cha nama, shrotasyaya cha dvipyaya cha. Namo jeshthaya cha kanishthaya cha nama, purvajaya cha parajaya cha namo, madhyamaya cha pagalbhaya cha namo, jaganyaya cha buddhiyaya cha nama, sobhyaya cha pratisaryaya cha namo, yamyaya cha kshemyaya cha nama, urvaryaya cha kalyaya cha nama, shokyaya cha vasanyaya cha namo, vanyaya cha kakshaya cha nama, shravaya cha pravishravaya cha nama, ashushenaya cha shurataya cha nama, shuraya cha vabindate cha namo, varmine cha varudhine cha namo, vilmine cha kavachine cha nama, shrutaya cha shrutasenaya cha. Namo dundubhyaya cha hananyaya cha namo, drishtave cha pramushaya cha namo, dutaya cha prahitaya cha namo, nishangine che shudhivate cha namo, tikshneshave cha yudhine cha namo, swayudhaya cha sudhanvane cha namo, shrutyaya cha patyaya cha namo, Katyaya cha nipyaya cha nama, sudhyaya cha sarasyaya cha namo, nadhyaya cha vaishantaya cha nama, kupyaya cha vatyaya cha namo, vashyaya cha namo, meghyaya cha vidyudhyaya cha nama, Idriyaya cha tapyaya cha namo, vatyaya cha reshmiyaya cha namo, vastavyaya cha vastupaya cha. Om Hara 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 Om Namah Somaya cha rudraya cha namah, tamraya cha runaya cha namah, Shangaya cha pashupataye cha nama, Ugraya cha bhimaya cha namo, Agre vadhaya cha dure vadhaya cha namo, Hantre cha haniyase cha namo, Vrikshebhyo harikeshebhyo namastaraya nama, Shambhave cha mayobhave cha nama, Shankaraya cha mayaskaraya cha nama, Shivaya cha shivataraya cha nama, Stetyaya cha kulyaya cha nama, Paryaya cha varyaya cha nama, Prataranaya chottaranaya cha nama, Atharyaya cha ladhyaya cha nama, Shashpyaya cha penyaya cha nama, Sikatyaya cha pravahyaya cha. Nama irinyaya cha prapatyaya cha nama, Kegumshilaya cha kshayanaya cha nama, Kavardine cha pulastaye cha namo, Goshtyaya cha grahyaya cha nama, Talpyaya cha geyaya cha nama, Katyaya cha gavvareshtaya cha namo, Hridayaya cha niveshpyaya cha nama, पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सौर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय च विघ्नदे च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीरकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमि वत्केभ्यः रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमोगेषाम् किञ्च राममत् या ते रुद्र शिवा तनो शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजेतया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनोमयस्कृति क्षयद्वेराय नमसा विधेमते यच्छम् जयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्तमुदमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषिमानो कोशुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रवाभिदो वदेर्हविष्मन्तो नमसा विधेमते आराते गो न उत पोरुषन्ने क्षयद्वेराय सुम् नमस्मेते अस्तु रक्षा च नो अदि च देव ब्रूयदा च सर्व यच्च द्विवर्हाः सुहिश्रुतम् गत्तसदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्त्वपरि द्वेषस्य दुर्मतिरगायो अवस्थिरा मघवद्भ्यस्तनुष्वमीडुस्तोकाय तनयाय मृडय मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निदाय कृत्तिम् वसान आचर पिनाकम् विभ्रदागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयो जने वधन्वानि तन्मसि अस्मिन्महत्यर्नवेन्तरिक्षे भवा अदि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मे जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कवर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पदाम् परिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिनः ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ತಿರೇ ತೇಷಾಗುಂಸಹಸ್ರಯೋ ಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣ ದಶ ಪ್ರದೇಶೇದ್ದಶೋ ದೇಶೇದ್ದಶೋ ದ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಳಯಂತು ತೇಯಂ ದ್ವಿಷ್ವೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ಭೋಜಂ ವೇ ದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಔರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸುಯ ಔಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೆ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಯಸ್ವಶ್ವಸ್ವದನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ವೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂ ದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇ ಚಜೋಯಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅಗ್ನಾ ವಿಷ್ಣು ಸಜೋಷ ಸೇವಾವದ್ಧಂತು ವಾಂಗಿರಃ ದ್ಯುಮ್ನೈರ್ವಾಜೇ ವಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ದೇತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ ಮೇ ವಾಕ್ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಸಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜೈಷ್ಠ್ಯಂ ಚ ಮ ಆಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ವರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವಶ್ಮಾ ಚ ಮೇ ದ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಸಶ್ಚ ಮೇ ತ್ವಿಶಿಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪಥಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ సంచ మేమయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సోమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిడం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్య మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శ్రీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే ఊర్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే చైత్రం చ మౌద్దిద్యం చ మే రయశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే క్షుచ్చ మే దేహయశ్చ మే యవాశ్చ మే మాశాశ్చ మే తిలాశ్చ మే ముద్దాశ్చ మే కల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అశ్వాశ్చ మే మృత్తికాశ్చ మే గిరయశ్చ మే పర్వతాశ్చ మే సికతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే తపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే వేరుధశ్చ మౌషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవారణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మయేమశ్చ మయితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మయింద్రశ్చ మే సోమశ్చ మయింద్రశ్చ మే సవితా చ మయింద్రశ్చ మే సరస్వతీ చ మయింద్రశ్చ మే పూషా చ మయింద్రశ్చ మే బృహస్పతిశ్చ మయింద్రశ్చ మే మిత్రశ్చ మయింద్రశ్చ మే వరుణశ్చ మయింద్రశ్చ మే త్వష్టా చ మయింద్రశ్చ మే ధాతా చ మయింద్రశ్చ మే విష్ణుశ్చ మయింద్రశ్చ మే శ్వినౌ చ మయింద్రశ్చ మే మరుతశ్చ మయింద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మయింద్రశ్చ మేంతరిక్షం చ మయింద్రశ్చ మే ద్యౌశ్చ మయింద్రశ్చ మే దిశశ్చ మయింద్రశ్చ మే మూర్ధా చ మయింద్రశ్చ మే ప్రజాపతిశ్చ మయింద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మే ధాభ్యశ్చ మే ధృపతిశ్చ మ ఉపాగుంసుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే मरुत्वतीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदिश्च मे दृष्ट्याश्च मे शुचश्च मे चमसाश्च मे क्रावाणश्च मे स्वरवश्च मऊपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेद्रम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो वृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् गुश्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसदिश्च मे त्रयोविगुंसदिश्च मे पञ्चविगुंसदिश्च मे सप्तविगुंसदिश्च मे नवविगुंसदिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसदिश्च मे चतुर्विगुंसदिश्च मे अष्टाविगुंसदिश्च मे त्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे अष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च बोर्ध्वा च व्यस्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादे बहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानिशगुंसि सद्विश्वे देवासूक्तवाच पृथिवीमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृवे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषा गुस्तपतिर्हतः अतो माताथो पिता अथो स्थूला अथो क्षुद्राः अतो कृष्णा अथो श्वेताः अतो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खन्फन्म्रसे ॐ शान्ति शान्ति शान्तिः ॐ भूमिर्भूम्नार्द्योर्वरिणान्तरिक्षम् महित्वा नमस्ते ते देव्यदिते निमन्नादमन्ना ध्यायादधे आयङ्गौ प्रश्निरक्रमे दशलम् मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुम् सद्दामविराज दिवाक् पतङ्गाय सुश्रिये नत्यस्य वहद्युभिः अस्य प्राणादमानत्यन्तश्चरति रोचना व्यख्यन्महिषः सुवः यद्वा क्रुद्धः परो वपमन्युना यदवर्या सुकल्पमग्ने तत्तव पुनस्थो दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवी मनुदध्वसे आदित्या विश्वे तद्देवा वसवश्च समाभरन् मनोज्योतिर्जुषतामान्यम् विच्छिन्नम् यज्ञगुम् समिमम् ददातु बृहस्पतिस्तनुतामिमम् नो विश्वे देवा इयमादयन्ताम् मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणागुश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणि देवी प्रसोवरे सदने सत्यायने सीदा समुद्रवति सावित्रि हनो देवी मत्यङ्गी मयि धरणि महो व्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमति जलशयनि श्रियम् नाराजा सत्यम् भोपरिमेदिनी सोपरिदत्तम् परिगाया विष्णुपत्नी महीम् देवीम् माधवीम् माधवप्रिया लक्ष्मीम् प्रियसखीम् देवीम् नमाम्यच्युत वल्लभाम् धनुर्धराय विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमयूर्याम् प्रतीचीमेनागुम् हविषाय जामः त्रेधा विष्णुरुर्धायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छोणे तिश्रव इच्छमाना पुण्यग्रश्लोकम् यजमानाय कृण्वति ॐ शान्ति शान्ति शान्तिः ॐ अहम् रुद्रेभिर्वसोभिश्चराम्यहमादित्ये ऋतविश्वदेवैः अहम् मित्रावरुणो वाभिभर्म्यहमिन्द्र
नाग्नि अहमश्विनोभा अहम् सोमामहनसम् विभर्म्यहम् तष्टारमुतभूषणम् वगम् अहम् दाधामि द्रवेणम् हविष्मातेषु प्राव्ये यजामानाय सुन्वते अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकेतुषे प्रथमा यज्ञियानाम् तामा देवाव्याददु पुरुत्रा भूरिस्थात्राम् मौर्या वेषयन्ते मया सो अन्नामत्यो विपश्यति य प्राणीति यै शृणोत्युक्तम् अमन्तवो मान्तौ पक्षयन्ति श्रुति श्रोतस्र दिवम् ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिः ऋतमालोषेभिः यम् कामयेतम् तामुग्रम् क्रोणोमितम् ब्रह्माणम् समृषिम् संसो मेधाम् अहम् रुद्राय धनुरातानोमि ब्रह्मद्विषे शर मेहन्तवाहु अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आविवेश अहम् सोवे पितरामस्य मूर्धन्ममयोनि रप्स्वा अन्तः समुद्रे ततो वितिष्ठे भुवनानु विश्वोत्तामोन्द्याम् वर्ष्मणोपस्पृशामि अहमेव वाता इव प्रवाम्यारभामाण भुवनानि विश्वा परो दिव पर एना पृथिव्ये तावाति महिना सम्बभूवा ॐ शान्ति शान्ति शान्तिः ॐ यो ब्रह्मा ब्रह्मण उञ्जहार प्राणेशिर कृत्तिवासा पिनाकी ईशानो देव सन आयुर्दधातु तस्मै जुहोमि हविषा घृतेन विभ्राजमानः शरीरस्य मध्याद्रोचमानु घर्मरुचिर्य आगात् स मृत्युपाशानपनुद्य घोरानिहायुषेणु कृतमस्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम् भग्रहमर्कमर्चम् तमायुषे वर्धयामो घृतेन श्रियम् लक्ष्मीमौबलामम्बिकाङ्गाम् षष्ठीम् च यामिन्द्रसेनेत्युदाहुः ताम् विद्याम् ब्रह्मयो निगुंसरूपामिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोन्यस्य योन्य सहस्रशो विश्वरूपाविरूपाः ससो नवः सपतयस्य योत्या आयुषेणो घृतमिदम् जुषन्ताम् दिव्यागण बहुरूपा पुराण आयुश्चिदो न प्रमत्नन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागुम्रेरिशो मोत वीरान् एकः पुरस्ताद्यैदम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराय स नो हविर्घृतमिहायुषे तु देवः वसून् रुद्रानादित्यान् मरुतोथ साध्यान् ऋगोन् यक्षान् गन्धर्वागुश्च पितृगुश्च विश्वान् भृगून् सर्पागुश्चाङ्गिरसोऽथ सर्वान् नृतगुम् भूत्वा स्वायुष्यामहयामशश्वत् विष्णो त्वन्नो अन्तमः शर्म यच्च सहन्त्या प्रतेधारामदुश्चुत उत्सम् दुर्प्रति अक्षितम् ॐ Shanti,
Shanti,
Shanti.
Swasti prajamya paripalayantam.
Nyayena margena
mahimahishah.
Go brahmanevya
shubhamastu
nityam.
Samasta lokah
sukhino
bhavantu.
Samasta lokah
sukhino
bhavantu.
Samasta
lokah
sukhino
bhavantu.
Om
shanti,
shanti,
shanti.